एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संघीय संसदः द्वयोः सदनयोः वर्षाकालिकाधिवेशनम् अद्यतः प्रारभते। राष्ट्रपतिना रामचन्द्र पौडेलेन मन्त्रिपरिषदः संस्तुतौ संसदः द्वयोरेव सदनयोः अधिवेशनम् आहूतमस्तीत्यतः अद्य दिवा एकवादने नयावानेश्वरवर्तिनी संघीय संसद भवने अधिवेशनम् प्रारप्स्यते। सांविधानिक व्यवस्थायाः अनुसारेण ज्येष्ठ मासस्य पञ्चदशे दिवसे प्रतिवर्षम् आगामिनः आर्थिक वर्षस्य कृते अर्थमन्त्रिणा आयव्ययकम् प्रस्तुष्यते। राष्ट्रपतिना प्रत्येकं वर्षस्य प्रथमाधिवेशनस्य प्रारभणे संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशस्य सम्बोधनस्य व्यवस्था वर्तते। राष्ट्रपतिना नीतिकार्यक्रमाणां प्रस्तुतेः माध्यमेन संसदः उपवेशः सम्बोधयिष्यते। अत्रान्तरे संसद सचिवालयेन अधिवेशनस्य संचालनाय विधातव्यानि व्यवस्थापकीय प्राविधिक प्रभृतीनि पूर्व कार्याणि प्रपूरितानि सन्तीति सचिवालयस्य प्रवक्ता एकराम गिरी अज्ञापयत्। सर्वोच्च न्यायालयेन काष्ठमण्डपे आन्दोलनरताः शिक्षकाः दिनत्रयस्य अभ्यन्तरे विद्यालयान् प्रत्यावर्तितुम् आदिष्टाः वर्तन्ते। आदेशयाचनानिवेदकस्य श्रवणकुमारचौधरिणः आदेशयाचनानिवेदने सर्वोच्चन्यायालयस्य न्यायाधीशस्य डॉ नकुलसुवेदिनः एकलन्यायपीठेन आन्दोलनरतानां शिक्षकाणां संविधानसम्मतः उचितयाचनाः सम्बोध्य आवश्यकनिर्णयं विधाय आदेशप्राप्तेः दिनत्रयस्य अभ्यन्तरे विद्यालयान् प्रत्यावर्तितुम् नियमितशिक्षणस्य वातावरणं सुनिश्चेतुम् आराश्रम बालबालिकाः पठनपाठनाधिकारात् न वञ्चयितुं च आदिष्टं वर्तते। एवमेव शिक्षकाणाम् आन्दोलनस्य कारणेन माध्यमिक शिक्षा परीक्षायाः परीक्षाफलस्य यथासमयं प्रकाशनस्य अवस्थां स्रष्टुमपि सर्वोच्च न्यायालयेन आदिष्टमस्ति। नेकपा एमाले दलेन लोकतन्त्र दिवसस्योपलक्ष्ये ह्यः राष्ट्रिय युवोत्सवः समायोजितः। काष्ठमण्डपस्य भ्रिकुटीमण्डपस्थाने ह्यः समायोजिते सम्मेलने सम्बोधनं कुर्वन् प्रधानमन्त्री एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली देशनिर्माणे यूनां संकल्पस्य सक्रिय प्रयासस्य च आवश्यकता वर्तते इत्युक्तवान् अस्ति। कार्यक्रमे देशः विभिन्नः संक्रमणकालिकावस्थाः अतिक्रम्य लोकतान्त्रिक व्यवस्थां लब्धवान् अस्ति इति चर्चयन् प्रधानमन्त्री ओली देशस्य विकासाय यूनां भूमिका महत्वपूर्णा भवति इति अगदत्। तदवसरे प्रधानमन्त्री ओली सर्वकारस्य विषये प्रसारितं भ्रमपूर्णं प्रचारं त्यक्त्वा आगामिनः निर्वाचनस्य देशस्य समृद्धेश्च कृते दृढतया संलग्नतायै अनुरुणत्। कार्यक्रमे नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः काष्ठमण्डप महानगरपालिकायाः उपप्रमुखः सुनीता डंगोलः अन्य युवप्रतिनिधयश्च धारणां व्यक्तवन्तः। नेपाले महाविनाशकारिणः भूकम्पस्य दुरापन्नस्य अनन्तरं अद्य दशवर्षाणि व्यतीतानि सन्ति। दशवर्षेभ्यः प्राक् द्वासप्तत्युत्तर द्विसहस्रतम विक्रमाब्दस्य वैशाख मासस्य द्वादशे दिवसे मध्याह्न षट्पञ्चाशत् कलोत्तर एकादशवादने गोर्खा जनपदस्य बार्पाक स्थानं केन्द्रीकृत्य महाभूकम्पः दूरापन्नः आसीत्। तेन भूकम्पेन अष्टौ सहस्राणि नवशतानि एकोनाशीति जनाश्च मृताः आसन्। त्रिशतोत्तर द्वाविंशतिः सहस्राणि जनाः आहताश्च आसन्। भूकम्पेन दशलक्षाणि आवासगृहाणि सप्तशतं विद्यालयभवनानि सार्धचतुश्शतं सर्वकारीयभवनानि प्रायः सहस्रं पुरातात्विकसम्पदश्च विनष्टाः आसन्। लक्षाधिकजनाः गृहविहीनाः आसन्। महाभूकम्पेन भूकम्पस्य केन्द्रभूतेन गोरखाजनपदेन सहैव ओखलढुङ्गा दोलखा रामेछाप सिन्धुपाल्चोक काभ्रेपलाञ्चोक सिन्धुली भक्तपुर काष्ठमण्डप ललितपुर रसुवा नुवाकोट धादिङ प्रभृतिषु जनपदेषु अपि महती क्षतिः भूता आसीत्। सर्वकारेण भूकम्पेन विनष्टानां भवनानां सम्पदांश निर्माणाय पुनर्निर्माण प्राधिकरणं संघटितम् आसीत्। तेन प्राधिकरणेन प्रायः सर्वमपि दायित्वं पूरयित्वा अवशिष्टानि कार्याणि सर्वकारस्य सम्बद्धनिकायेभ्यः प्रदत्तानि सन्ति। नवनियुक्तेन शिक्षा विज्ञान प्रविधि मंत्रिणा रघुजी पन्तेन ह्य मंत्रालय पदभार गृहीतोस्ति। पदभार ग्रहणानन्तरं संचार कर्मिभिः सह भाषमाणः शिक्षा मंत्री पन्तः वार्तायाः माध्यमेन आन्दोलनरतानां शिक्षकाणां याचनानां संबोधनस्य प्रयासो विधीयते इति प्रतिबद्धतां व्यक्तवान्। मंत्री पन्तः शिक्षकाणां याचनायाः विषये सामान्यतया ज्ञानं सदपि मन्त्रालयस्य पक्षतः अधुनावधि जातान् प्रयासान् विज्ञायैव आगामिनः प्रयासस्य विषये कथयितुं शक्यते इति उदैरयत्। विद्यालय शिक्षाधिनियम क्रियान्वयन सम्बद्धा विभिन्नः याचनाः अग्रे उपसार्य त्रयोविंशतेः दिवसेभ्यः शिक्षकाः आन्दोलनरताः सन्ति। शिक्षकाणाम् आन्दोलनस्य मध्ये एव तात्कालिक शिक्षा मन्त्रिणा विद्याभट्टराय इत्यनया पदात्यागपत्र प्रदानानन्तरं प्रधानमन्त्रिणा केपी शर्मा ओलिना नेकपा एमाले दलस्य नेता रघुजी पन्त शिक्षा मंत्री पदे नियुक्तोस्ति। तत्पूर्वं राष्ट्रपतिः रामचन्द्र पौडेलः नवनियुक्तं शिक्षा मंत्रिणं पन्तं पदगोपनीयतयो शपथं अग्राहयत्। राष्ट्रपति भवने ह्य आयोजिते विशेष समारोहे राष्ट्रपतिः पौडेलः शिक्षा मंत्रिणं पन्तं शपथं अग्राहयत्। उपप्रधान नगरीय विकास मंत्री प्रकाशमान सिंह राष्ट्रस्य आवश्यकतायाः जनतायाः याचनायाः अनुसारेण विकास निर्माणस्य कार्ये प्रवर्तितुं सर्वान् स्थपतिन् अनुरुणद्धि। य ललितपुरे आयोजितं स्थपतिनां द्वितीय राष्ट्रिय सम्मेलनं सम्बोधयन् उपप्रधानमन्त्री सिंह यात् संरचनानां विकासायोजनानां च निर्माणसमये राष्ट्रस्य जनतायाः आवश्यकतां ज्ञात्वा अनुकूल परिवर्तनम् आनेतुं सर्वैः स्थपतिभिः प्रवर्तनीयम् इत्यत्र बलं दत्तवान्। स्वास्थ्य जनसंख्या मंत्री प्रदीप पौडेलः नैज चिकित्सा महाविद्यालयैः सर्वकारीय चिकित्सा महाविद्यालयानामिव निर्वहण भरणस्य प्रदानस्य व्यवस्थायाः अक्रियान्वयने सति मन्त्रालयेन सह सम्बद्धानां महाविद्यालयानां सर्वाणि कार्याणि अवरुद्धानि भविष्यन्ति इति उक्तवान् अस्ति। मन्त्रालये नेपाल चिकित्सक संघेन आवासीय चिकित्सकानां प्रतिनिधिभिश्च सह पूर्वेद्युः विहितायां वार्तायां स्वास्थ्य मंत्री पौडेलः निर्वाहवरणस्य प्रदानस्य विषये चिकित्सा शिक्षा आयोगेन निर्णयः पूर्वमेव विहितोऽस्तीत्यतः विषयेऽस्मिन् तर्कोपस्थापनस्य औचित्यं नास्ति इति समस्पष्टयत्।